ప్రవేశాయ లఘు సిద్ధాంత కౌముదీ గురువేవ గతి గురుమేవ గురుమేవ మహాత్మ నమో గురవే న గురో పరమం శిశురస్తి గురో మతిరస్తి గురో మమ పాహి గురో ఓం నమః పాణినికాత్యాయన పతంజలిభ్యః శబ్ద విద్యా సంప్రదాయ ప్రవర్తకేభ్యః నమో మునిభ్యః నమో మహద్భ్యః నమో గురుభ్యః. సర్వాదీని సర్వనామాని ఇది సర్వనామ సంజ్ఞా విధాయకం సూత్రం. ఇది సర్వనామ సంజ్ఞా విధాయకం సంజ్ఞాసూత్రం. సర్వాదీని శబ్దస్వరూపాన్ని సర్వనామ సంజ్ఞాని స్యు ఇది సూత్రార్థ. సర్వ విశ్వ ఉభ ఉభయ గతర గతమ అన్య అన్యతర ఇతర తత్వ నేమ సమ సిమ ఇత్యాదయ పంచత్రింశత్ సర్వాదయ సంతి. తత్ర వయం సర్వశబ్దస్య ప్రక్రియాం జ్ఞాత్వా వయం తత్ర సర్వనామ సంజ్ఞా యది భవతి చేత్ పంచసు స్థలేషు తత్ర వ్యత్యాసః అస్తి ఇతి జ్ఞాతవంతః. తదనంతరం ఉభశబ్దస్య విషయే ఉభశబ్దః నిత్యం వివచనాంతః ఇతి అస్మాభిః తత్ర మూలే పఠితం. నిత్యం వివచనాంతః ఇత్యుక్తే కథం తస్య రూపం ఇత్యుక్తే ఉభౌ ఉభాభ్యాం 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 ఉభయోః ఉభయోః ఇతి ఉత్తరం ఆగతం. తత్ర మూలే అపి అస్తి. ఇదానీ ప్రశ్నః ఏవం సమభవత్. అత్ర సర్వనామ సర్వనామ నిమిత్త కార్యాణి ఏకవచనే బహువచనే ఏవ స్తః తత్రైవ సంతి సర్వనామ నిమిత్త కార్యాణి. అతః అస్మాభిః ఉభశబ్దస్తు నిత్యం వివచనాంతః తస్య కిమర్థం సర్వనామ గణే పాఠః సర్వనామ గణే పాఠః ఇతి ప్రశ్నః. తదా ఉచ్యతే తత్ర మూలకార్యేణైవ ఉచ్యతే తస్య ఇహ పాఠః అకజర్తః. ఇదానీ సర్వనామ సంజ్ఞా కిమర్థం సర్వనామ సంజ్ఞా సర్వనామ కార్యాణి సర్వనామ సంజ్ఞా నిమిత్త కార్యాణి బహుని సంతి. తత్ర అవ్యయ సర్వనామ్నాం అకచ్ ప్రాక్తే ఇది ఏకం సూత్రం విద్యతే. తత్తు పంచమాధ్యాయే తృతీయ పాదే అస్తి. పంచమాధ్యాయస్య తృతీయ పాదే ఏతత్ సూత్రం కిం ఉచ్యతే ఇత్యుక్తే అకచ్ అకచ్ ఇతి ప్రత్యయః తేహే తే టి నామ టి సంజ్ఞా అస్తి. తేహే ఇత్యుక్తే తేహే అంత్యవర్ణాత్ ప్రాక్ ప్రాక్ తేహే ఇత్యుక్తే అంత్యవర్ణాత్ ప్రాక్ అకచ్ ప్రత్యయః భవతి. అకచ్ ఇత్యత్ర చకారస్య ఇత్సంజ్ఞా అక్ ఇతి ప్రత్యయః. ఏవం ఉభ అక్ ఉభ ఇత్యస్య మధ్యే అక్ ఇతి ప్రత్యయః భవతి. ఏవం ఉభకః ఉభక ఇతి ప్రాతిపదిక సిద్ధిః. ఏవం అకచ్ ప్రాప్త్యర్థం అత్ర సర్వనామ గణే ఉభశబ్దస్య పాఠః. నతు జషస్తి వా ఆమి సర్వనామ్నః సుత్ సర్వనామ్నస్మి న్యసిన్యోః స్మాస్మినౌ ఏతాని సూత్రాని అత్ర న భవంతి. తథాపి అత్ర కిమర్థం పాఠః ఇత్యుక్తే తస్య ఇహ పాఠః అకజర్తః ఇతి మూలకారః స్వయం వదతి. అనంతరం ఉభయ శబ్దస్య విషయే వయం ప్రవిష్టవంతః. ఉభయ శబ్దస్య ద్వివచనం నాస్తి దతర డకమౌ ప్రత్యయౌ. ఉభయ శబ్దస్య ద్వివచనం నాస్తి. ఉభయ శబ్దస్య తర్హి నిష్పత్తిః ఉభౌ అవయౌ అవయవౌ యస్య అవయవినః సః ఉభయః. ఉభయః మణిః ఇతి అస్తి. మణిః అస్తి ఏకస్మిన్ స్ఫటికమణిః అస్తి. చింతయతు స్ఫటికమణిః వా మరకటమణిః వా యత్కిమపి అస్తి. యది ఏకత్ర ఏకః వర్ణః అస్తి మణేః ఏకస్మిన్ భాగే ఏకః వర్ణః అస్తి అపరస్మిన్ భాగే ఏకః వర్ణః అస్తి చేత్ ఉభయో మణిః ఇతి ప్రయోగః అస్తి. ఏవం ఉభయో మణిః ఇతి ప్రయోగః తత్ర క్రియతే. ఉభయః మణిః ఏవం ఏతాదృశ ప్రయోగాః మహాభాష్యక कारः वदति। इदानीं सर्व उभयशब्दस्य अनन्त उभयशब्दस्य द्विवचनं नास्ति इति कय्यतः वदति, कय्यतः महाभाष्यस्य व्याख्यानकर्ता। दशरडतमौ उभयशब्दस्य रूपाणि तर्हि कथं भवन्ति? उभयः उभये, एवम् उभयस्मै, उभयस्मात्, उभयस्य, उभयस्मिन्, सर्वशब्दवद् भवति, द्विवचनं नास्ति। दशरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणम् इति तदन्ताग्राह्याः। इदानीं दशरडतमौ प्रत्ययौ, इदानीं सर्वादिगणे वयं स्मः, सर्वादीनि सर्वनामानि, सर्वविश्व तत् उभ उभय दशरडतमः, दशरडतमौ प्रत्ययौ स्तः। तर्हि प्रत्ययस्य पाठः सर्वादिगणे किमर्थम् इति प्रश्नः। तत्र एवम् उच्यते, एतौ यद्यपि प्रत्ययौ, एते प्रत्यय अत्र प्रत्ययनिर्देशेन प्रत्ययान्ताः ग्राह्याः इति सूच्यते। किमर्थम् इत्युक्ते, इदानीं प्रथमम् अस्माभिः दशरडतमौ प्रत्ययौ केन सूत्रेण सिध्यति इति पश्यामः। कियत् तदो निर्धारणे द्वयोरेकस्य दशरच् इति सूत्रम् अस्ति, तत्र दशरच् इति प्रत्ययः अस्ति, एवमेव दशमच् इति प्रत्ययः अस्ति, एकाच्च प्राचाम् इत्यपि सूत्रमस्ति। एवं किं शब्दस्य, यद् शब्दस्य, तद् शब्दस्य, एकशब्दस्य, किं, तद्, यद्, एक, एतेषां दशरडतमौ प्रत्ययो भवतः। तर्हि किं, किं शब्दस्य दशरडतम इत्युक्ते कतरकतम इति अभवत्, यद् शब्दस्य दशरडतम यतरयतम इति अभवत्, एवं तद् शब्दस्य ततरततम इति अभवत्, एकशब्दस्य एकतर एकतम इति अभवत्। सर्वादिगणे दशरडतमप्रत्ययपाठात् अस्माभिः अष्टौ शब्दाः ग्राह्याः। किमर्थं, कथं ज्ञायते इत्युक्ते, न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्ययः, अस्माभिः प्रकृतेः अपि केवलप्रकृतेः प्रयोगः राम, कृष्ण, सर्व इत्यादि प्रयोगः नास्ति। प्रकृतीनां प्रयोगः केवलप्रकृतीनां प्रयोगः नास्ति लोके, केवलप्रत्ययानां प्रयोगः अपि नास्ति। अतः प्रत्ययग्रहणे तदन्तग्रहणम् इति एका परिभाषा विद्यते। परिभाषा नाम अनियमे नियमकारिणी परिभाषा, यदा नियमः नास्ति तदा परिभाषा नियमं वदति। परिभाषाणां तत्र कुत्र अस्ति इत्युक्ते, परिभाषेन्दुशेखरः इति ग्रन्थः अस्ति, परिभाषेन्दुशेखरः इति नागेशभट्टस्य ग्रन्थः, नागेशभट्टः परिभाषेन्दुशेखरः इति ग्रन्थं रचितवान्। ततः पूर्वमपि परिभाषाः आसन्, परन्तु एषः परिभाषेन्दुशेखरः इति एकं ग्रन्थं रचितवान्। तेन पाणिनिना अत्र ज्ञाप्यरूपकेण उक्ताः परिभाषाः स्वीक्रियन्ते, वाचनिकपरिभाषाः स्वीक्रियन्ते। इत्युक्ते किम्, अत्र परिभाषा नाम किम्, अनियमे नियमकारिणी परिभाषा। इदानीं दशरडतमौ प्रत्ययौ सर्वादिगणे पठितः, इदानीं प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति कथं ज्ञातम् इत्युक्ते, एकः नियमः अस्ति। नियमः कुत्र अस्ति? परिभाषा अस्ति। परिभाषायाः उल्लेखः कुत्र इत्युक्ते, परिभाषेन्दुशेखर इति ग्रन्थे अस्ति। एषा परिभाषा पाणिना उक्तपरिभाषा वा इति प्रश्नः। तदा उच्यते, परिभाषाः बहुविधाः भवन्ति। केचित् पाणिनिः महाभाष्यकारः, पाणिनिः उत वररुचिः उत पतञ्जलिः स्वयं महाभाष्यग्रन्थे परिभाषाणाम् उल्लेखनं कृतवन्तः। एताः परिभाषाः वाचनिकी परिभाषाः भवन्ति। वाचनिकी इत्युक्ते दे हेव् औट्रैट्लि डिक्लेर्ड् दट् दिस् इस् अ रूल् विच् वी हेव् टु फालो। सच् रूल्स् आर् काल्ड् एस् वाचनिकी परिभाषा। औट्वर्ड्लि वोकलि सेड् दे हेव् बीन् वोकलि टोल्ड् बै पतञ्जलि आर् वररुचि आर् पाणिनि मोस्ट्लि बै भाष्यकार। Now, there are other paribhashas which is understood by Panini's method of composing the sutras. Method or the words which he has used. Based on that, there may be some paribhashas which Panini wants to indicate. Those are called as Nyapaka paribhasha. That is, they are not directly told that this paribhasha exists, but they are told that these paribhashas are nyapaka. Panini wants you to remember that such a thing exists. So these are nyapaka paribhashas. Idanim pratyagrahane tadantagrahanam iti eka paribhasha vidyate. Pratyagrahana paribhasha iti tasya nama. Kim yad tad eka iti yeteshu shabdeshu datara datamau pratyayau bhavatah. एते तदा अष्टौ शब्दाः आगच्छन्ति। इदानीम् अस्माभिः डकरडतमौ प्रत्ययौ इति सर्वादिगणे प्रत्ययौ पठितौ, तत्र प्रत्ययान्तशब्दाः ग्राह्याः इति उक्तम्। एतावत्पर्यन्तं किमपि सन्देहः अस्ति वा? महादेवन् महोदय, अवगतं। सुजाता भगिनी, सुजाता भगिनी अवगतं वा? बहु शब्दमस्ति। अस्ति अस्ति अत 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 एव टेक्निकल् विषयः अस्ति। दतरगतमौ प्रत्ययौ सः, प्रत्ययौ तु सर्वादिगणे पठितौ। प्रत्ययौ किमर्थं पठितौ इत्युक्ते प्रत्ययग्रहणेन तदन्ताः ग्राह्याः। कथं ज्ञातं भवद्भिः इत्युक्ते नियमः अस्ति। नियमः कुत्र अस्ति? यत्र नियमः नास्ति तत्र नियमः क्रियते। अनियमे नियमकारिणी परिभाषा इति उच्यते। परिभाषा नाम सूत्राणां परिभाषासूत्रम् इत्यपि अस्ति, तस्य विषयम् अन्यत्। इदानीं नियमरूपेण परिभाषा ये सन्ति प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषा अस्ति। एताः परिभाषाः कुत्र पाठिताः इत्युक्ते परिभाषेन्दुशेखर इति ग्रन्थे नागेशभट्ट इत्याख्य वैयाकरणेन सङ्गृहीताः। तर्हि भाष्यकारस्य वा पाणिनेः वा अनुग्रहः अस्ति वा इत्युक्ते भाष्यकारस्य अनुग्रहः अस्ति। यतोहि एताः परिभाषाः महाभाष्ये इतस्ततः यत्र यत्र नियमः आवश्यकः तत्र पाठितः, तत्र तेषाम् उद्भवः प्रदर्शितः महाभाष्ये। इदानीं केचन काश्चन परिभाषाः तत्र न पाठिताः इत्युक्ते वाचनिकरूपेण वोकलि दे हेव् नाट् बीन् टोल्ड् इन् महाभाष्य, देन् इट् हेस् बीन् अण्डर्स्टुड् बै दि व्याख्यानकर्ता। व्याख्यानकर्तृभिः तत्र पाणिनि कृत सूत्र सूत्र सूत्रक्रमेण वा सूत्र परिपाठ्या वा परिपाठ्य इत्युक्ते द मेथड् इन् विच् पाणिनि हेस् कम्पोस्ड् दि सूत्र, they have derived certain paribhashas. There are derived paribhashas. There are vocally said paribhashas. There are paribhashas which Pani wants you to remember certain things. That is why he has used some usages in his sutras. So, idan tat tasya sapta avagamanam agre bhavati. Idanim yesha paribhasha iti gyasyamaha. Pratyagrahana paribhasha iti uchyate. Pratyagrahana paribhashaya asmabhi datara datama iti kathanena katara katama yatara yatama tatara tatama ekatara ekatama iti ashto shabdaha asmabhi grihyante. इदानीं एतावत्पर्यन्तम् एकः अंशः इदानीम् अग्रिम अंशः एवमस्ति इदानीम् एकः नियमः एकः प्रश्नः क्रियते सुप्तिङन्तं पदम् इति पाणिनिः कृतवान् सूत्रं कृतवान् सुबन्तं तिङन्तं पदसंज्ञं स्यात् इति तस्य अर्थः अत्र किमर्थं सुप्तिङ् पदम् इति न उक्तवान् यदि प्रत्ययग्रहणपरिभाषा अस्ति चेत् सुप्तिङ् पदम् इति तेन वक्तव्यमासीत् सः किम् उक्तवान् सुप्तिङन्तं पदम् इति उक्तवान् अन्तम् इति शब्दस्य योजनं कृतवान् कः पाणिनिः तत्तेनैव ज्ञायते संज्ञाविधौ यदा संज्ञा उच्यते प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति ज्ञाप्यते प्रत्ययसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति एकः नियमः सापि एका परिभाषा अस्ति संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति नियमः अपि अस्ति इदानीं सुप्तिङन्तं पदम् इति सूत्रे अन्तग्रहणं अस्मान् ज्ञाप्यते यत् सुप्तिं पदम् इति कथनेनैव इष्टसिद्धिः स्यात् इफ् सुप्तिङ् इति प्रत्ययो प्रत्यय न केवला प्रकृतिः प्रयोक्तव्याः न केवलाः प्रत्ययाः न केवलप्रत्ययः प्रयोक्तव्यः तर्हि सुबन्तं तिङन्तं पदसंज्ञं स्यात् इति ज्ञायते किमर्थम् अन्तशब्दस्य प्रवेशः सुप्तिङन्तं पदम् इत्यत्र तदा उच्यते दि वेरि फ्याक्ट् दट् पाणिनि हेस् इन्क्लूड् अन्तशब्द इन् सुप्तिङन्तं पदं टेल्स् अस् दट् रिमैन्स् पाणि वाण्ट्स् अस् टु अण्डर्स्टाण्ड् दट् वेन् संज्ञाविधि ईस् बीङ्ग् डन् प्रत्ययग्रहणपरिभाषा विल् नाट् अकर् प्रत्ययग्रहणपरिभाषा विल् नाट् अकर् संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति ज्ञापनार्थमेव पाणिनिः किं कृतवान् सुप्तिङन्तं पदम् इत्यत्र अन्तशब्दस्य योगं कृतवान् दीस् परिभाषास् आर् काल्ड् डिरैव्ड् परिभाषा पाणिनिः स्वयं न उक्तवान् संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति पाणिनिः स्वयं न उक्तवान् सुप्तिङन्तं पदम् इत्यस्य अन्तशब्दस्य योगेन अस्माभिः एवं स्वीक्रियते पाणिनेः इष्टम् एवमस्ति पाणिनेः अभिप्रायः एवमस्ति इति अस्माभिः तत्र वि डिरैव् इट् अस्माभिः तत्र आकृष्यते पाणिनिना ज्ञाप्यते अन्तग्रहणेन पाणिनिना ज्ञाप्यते इदानीम् एकम् अन्यम् उदाहरणं पश्यामः तत्तवतो निष्ठा इति सूत्रमस्ति तत्तवतो निष्ठा तत्तवतो निष्ठा इति सूत्रस्य वयं पश्यामश्चेत् तप्रत्ययस्य तवतु प्रत्ययस्य निष्ठा संज्ञा अस्ति इदानीं तप्रत्ययस्य किं तव गतः गतवान् इति तवतु तप्रत्ययः तवतु प्रत्ययः गतवान् गतवती इत्यादयः तर्हि प्रत्ययस्यैव निष्ठा संज्ञा न तु प्रत्ययान्तस्य किमर्थम् इत्युक्ते तत्तवतो निष्ठा इति संज्ञासूत्रं संज्ञासूत्रे प्रत्ययग्रहणं यदि क्रियते चेत् तदन्तग्रहणं न कर्तव्यम् इति अन्यः नियमः अस्ति तेनैव अत्र सुप्तिङन्तं संज्ञासूत्रमेव तत्रापि तत्र प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति नियमः तेनैव स्वीकृतः तस्य उदाहरणं तक्तवतु निष्ठा सूक्त द वेरी संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति नियमः कस्मात् उद्धृतः इत्युक्ते सुप्तिङन्तं पदम् इत्यत्र अन्तग्रहणात् अन्तग्रहणं पाणिनिना कृतं तेन पाणिनिना ज्ञाप्यते संज्ञाविधौ प्रत्ययग्रहणे अन्तग्रहणं नास्ति अतः मया अत्र सुप्तिङन्तं पदम् इत्यत्र अन्तग्रहणं कृतम् इति पाणिनिः अस्मान् सर्वान् ज्ञापयति अस्य उदाहरणं शुद्ध उदाहरणं किं तत्तवतो निष्ठा इति संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इत्यस्य शुद्ध उदाहरणं तत्तवतो निष्ठा इति सूत्रम् अत्र तप्रत्ययस्य तवतु प्रत्ययस्यैव निष्ठासंज्ञा न तु गतवान् गतवती कृतवान् कृतवती इत्यस्य कृतः कृता इत्यस्य निष्ठासंज्ञा नास्ति इदानीम् एतावत्पर्यन्तम् एकः अंशः इदानीं प्रश्नः क्रियते अत्र दतरडतमो प्रत्ययो इति संज्ञाविधिः सर्वनामसंज्ञाविधिः अस्ति तथापि अत्र प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति प्रत्ययग्रहणपरिभाषा अस्माभिः अङ्गीकृता किमर्थम् इति प्रश्नः तदा उच्यते तथापि इह तदन्तग्रहणं केवलयोः संज्ञयोः प्रयोजनाभावात् इत्युक्ते इदानीं केवलसंज्ञा इदानीं सर्वनामसंज्ञायाः दतरड केवलसंज्ञायाः प्रयोजनाभावात् इदानीं दतरडतमौ इति प्रत्ययस्य संज्ञाविधानेन अस्माकं केवलसंज्ञाविधानेन तत्र प्रयोजनं नास्ति क्वचित् परिभाषा नित्या भवति अनित्या भवति तदपि अस्माभिः ज्ञातव्यम् क्वचित् परिभाषाः नित्या परिभाषा नित्या वा अनित्या वा इति ज्ञातव्यम् संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति परिभाषा अनित्या 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 इत्युक्ते सर्वत्र न भवति इत्यर्थः तदपि स्वीकर्तुं शक्यते केवलयोः संज्ञा संज्ञायाः इदानीं संज्ञा अस्ति सर्वनामसंज्ञा अस्ति केवल सर्वनामसंज्ञा करणेन प्रयोजनं किमपि अस्ति वा किमपि नास्ति तस्य दतरडतम इति प्रत्यय इति यद् शब्दस्य किं शब्दस्य एकशब्दस्य योगेन एव तेषां प्रयोगः अस्ति अतः यद्यपि अत्र प्रयोगशरणाः वैयाकरणाः इति तथैव उच्यते तदर्थमेव उच्यते प्रयोगशरणाः वि आल्वेस् वैयाकरणाः प्रयोगम् अनुसृत्यैव गच्छन्ति प्रयोगः यदि अस्ति चेत् प्रयोगशरणाः ते सूत्रमपि त्यक्तुं ते उद्युक्ताः भवन्ति प्रयोगाः भवेत् एवम् अत्र इदानीं पुनः समरैस् करोमि प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषा अस्ति तेन किं कृतं तेन अस्माभिः दतरडतमौ यद्यपि प्रत्ययौ स्तः अस्माभिः दतरडतमप्रत्ययान्तशब्दाः स्वीक्रियते के ते शब्दाः इत्युक्ते किं शब् किं यद् तद् एक एते शब्दाः यदि दतरडतमौ प्रत्ययाभ्यां यदि युज्यते तर्हि किं भवति अष्टौ शब्दाः सिद्ध्यन्ति प्रत्ययग्रहणपरिभाषया अस्माभिः स्वीक्रियते इदानीं प्रत्ययग्रहणपरिभाषाविषये एकः अंशः अस्ति संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति अस्माभिः ज्ञायते सुप्तिगन्तं पदम् इति सूत्रे पाणिनिना अन्तग्रहणं कृतम् अतः तेन ज्ञाप्यते संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति तथापि अत्र तदन्तग्रहणम् अत्र स्वीक्रियते किमर्थं नाम अत्र केवलसर्वनामसंज्ञायाः प्रयोजन दतरडतमप्रत्ययानां सर्वनामसंज्ञायाः प्रयोजनस्य अभावः के प्रयोजनं नास्ति दतर इफ् यु गीव् सर्वनामसंज्ञा टु दतर अण्ड् दतम ओन्ली द प्रत्ययात् प्रयोजनं नास्ति प्रयोजनम् अनुद्दिश्य बन्धोऽपि न प्रवर्तते इति पाणिनेः एव उक्तिः अतः प्रयोगशरणाः वैयाकरणाः प्रयोगमनुसृत्य अस्माभिः अत्र तदन्तग्रहणं स्वीकृतम् idani avagatam va sarvam. Avagatam va. Idani sarvana sarvadini sarvanamani ityatra sarva vishva ubha ubhaya dakara gatama. Idani kataraha katamaha yataraha yatamaha tataraha katamaha anantaram ekataraha ekatamaha yetesham rupani kataraha kataro katare yataraha yataro yatare evam tataraha tataro tatare ekataraha ekatarau ekatare ityadi sarva shabdavat bhavati evam prakriya api evam tam sayeva. Idani anya shabdaha asti anya shabda sarva vishva katara sarva vishva ubha ubhaya katara katama anya anya shabdaha sarva shabdavat anantaram anyatara iti anyatara itara. इदानीम् अन्यतर शब्दस्य विषये अस्माभिः ज्ञातव्यम् अन्यतर इति अत्रापि दतर प्रत्ययः अस्ति वा इति सन्देहः भवति. तदा उच्यते पुनः अत्र अन्यतर अन्यतरस्य ग्रहणात् अस्माभिः ज्ञायते अन्यतर अन्यतम शब्दौ अव्युत्पन्न शब्दौ अव्युत्पन्नौ नाम तत्र अर्थवत् अधातुर अप्रत्यय प्रातिपदिकम् इति सूत्रस्य व्याख्यान समये मया उक्तं व्युत्पन्नाः शब्दाः अव्युत्पन्न शब्दाः इति शब्दाः द्विविधाः. व्युत्पन्नाः शब्दाः नाम प्रकृति प्रत्यय विभागोपेताः. इदानीं पठति इति अस्ति, पठति प्रकृतिः अस्ति, तिम् इति प्रत्ययः अस्ति, राम इति रामः इति अस्ति, राम प्रकृतिः, सु इति प्रत्ययः अस्ति, प्रकृति प्रत्यय विभागोपेतः. राम इति प्रातिपदिकस्यापि रमुधातोः घञ् प्रत्यये कृते राम इति प्रातिपदिकस्य निष्पत्तिः. एवं व्युत्पन्नाः शब्दाः एते सर्वे सर्वं धातुजम्. इदानीम् अहं मया उक्तं तत्र दित्तदपित्तादयः केचन अव्युत्पन्नशब्दाः सन्ति. अन्यतर अन्यतमशब्दौ अपि अव्युत्पन्नशब्दौ इत्युक्ते तेषां प्रकृतिप्रत्ययविभागौ न स्तः. अन्यतर अन्यतमशब्दौ. इदानीं सर्वादीनि सर्वनामानि इति गणे अन्यतरशब्दस्य प्रवेशः अस्ति. अन्यतर इत्युक्ते अन्यतर इत्युक्ते अर्थः कः? अन्यतरः अन्यतरः इत्युक्ते अर्थः कः? अन्यतरः इत्युक्ते द्वयोः एकः इति भवति किल. द्वयोः मध्ये एकः इति अर्थः एव अन्यतरशब्दस्य अर्थः. अन्यतमशब्दस्य अर्थः अन्यत् श्रेष्ठः किन्तु बहूनां मध्ये एकः. अन्यतमशब्दस्य बहूनां मध्ये एकः, अन्यतरशब्दस्य द्वयोः मध्ये एकः इति द्वयोः मध्ये एकः इति अस्ति. तत्र अतैव द्विबहुविषये निर्धारणे वर्तते. अन्यतर अन्यतमशब्दौ द्विबहुविषये निर्धारणे वर्तते. निर्धारण इति जानन्ति वा भवन्? निर्धारणाषष्टिः इति भवति किल. निर्धारणं नाम कोऽपि जानाति वा निर्धारणं नाम किम्? निर्धारणम् महादेवन् महोदय निर्धारणम् हा डिफ़रेन्शियेटिङ्ग् एक्साक्ट्लि रैट् हा एक्साम्पल् तत्र उदाहरणं वक्तुं शक्यते वा? हा अस्तु डिफ़रेण्ट् आक्चुलि यु आर् करेक्ट्. निर्धारणं नाम डिफ़रेन्शियेटिङ्ग् आर् डिफ़रेन्शियेटर् स एव अर्थः. इदानीं प्राणिनां मानवः श्रेष्ठः इति वाक्यमस्ति. अत्र निर्धारणमस्ति. यदा निर्धारणं भवति तदा षष्ठीभक्तिः भवति इति विभक्तिनियमः कारकप्रकरणे अस्ति. यतश्च निर्धारणम् इति सूत्रं विद्यते. निर्धारणं नाम इदानीं प्राणिनां मानवः श्रेष्ठः. प्राणी इति एकः जातिः. तत्र अस्माभिः किं क्रियते? मानवस्य विश्लेषः क्रियते. सपरेशन्, वि टेक् औट् दि मानव फ्रम् दि ग्रूप्. प्राणिनां मानवः श्रेष्ठः. एवं गोषु कृष्ण बहु क्षीरा. कृष्ण इति एका गौः अस्ति. कृष्णवर्णीया अपि अस्ति. गोषु कृष्ण बहु क्षीरा, बहु क्षीरं ददाति. एतादृशवाक्येषु निर्धारणमस्ति. निर्धारणं नाम सपरेटिङ्ग्. तत्र एकस्मात् एकजातिः वर्तते. जातेः एकस्य अवयवस्य पृथक्करणं. जाति विल् हाव् लाट् आफ् काम्पोनेण्ट्स्. अवयवाः बहु सन्ति मनुष्यजातिषु. मानवजातिषु मानवाः बहवः सन्ति. तत्र प्राणिनां सारि प्राणिजातिषु प्राणिना प्राणिजातिमध्ये तत्र 86 षडशीति जातयः सन्ति. एबौ वाटर् एवमेव षडशीति बिलो वाटर्. 86 लाक्स् स्पीशीस् आफ् लिविङ्ग् बीङ्ग्स् आर् देर्. तत्र मानवः एकः. मानवः एकः, वन् स्पीशीस्. मेन् इस् वन् स्पीशीस्. प्राणिनां मानवः श्रेष्ठः. षडशीति प्राणिषु अस्माभिः किं क्रियते? मानवं पृथक् कृत्वा वाक्ये उच्यते. स एव निर्धारणम् इति उच्यते. यदा निर्धारणं यदा भवति वाक्ये तदा समुदायस्य षष्ठीभक्तिः इति उच्यते. एवं किं भवति? निर्धारणमस्ति. अत्रापि अन्यत्र अन्यतमशब्दौ अव्युत्पन्नौ द्विबहुविषये निर्धारणे वर्तते. अन्यतर इत्युक्ते द्वयोः मध्ये एकः, अन्यतम इत्युक्ते बहूनां मध्ये एकः. इदानीम् अन्यतमशब्दस्य पाठः गणे न अस्ति. इदानीं गणे वयं पश्यामश्चेत् गणे अन्यतमशब्दस्य पाठः नास्ति. अतः किं भवति? अन्यतमः, अन्यतमौ, अन्यतमाः इति रामशब्दवत् भवति अन्यतमशब्दः. अन्यतरशब्दस्तु सर्वशब्दवत् भवति. अन्यतरः, अन्यतरौ, अन्यतरे इति सर्वशब्दवत् भवति. सर्वनामसंज्ञा प्राप्नोति. तेन किं भवति? जशस्वी इति भवति. स्मै, स्मात्, स्मिनौ सर्वं भवतः भवन्ति. एवम् अन्यतर, अन्य, अन्यतर. इतर इति शब्दः अन्य इति अर्थे वर्तते. इतर इति शब्दः अन्य इति अर्थे एव वर्तते. सर्वशब्दवत् भवति. इतरः, इतरौ, इतरे. त्वत्, त्वा इति शब्दौ अन्यपर्यायौ एव स्तः. तत्र केचन वदन्ति त्वत् इत्यस्य एकः उदात्तः, अपरः अनुदात्तः. अहमपि दृष्टवान् तत्र व्याख्याने एवमेव अस्ति. एकः तान्तः, अन्यत्तु अकारान्तः इति केचन वदन्ति. यत्किमपि भवतु, त्वा इति स्वीक्रियते चेत् एतद् अदन्तपुल्लिङ्गप्रकरणम्, अतः अकारान्तः एव स्वीक्रियते. त्वा इति स्वीक्रियते चेत् किं भवति? अन्यपर्यायौ. तत्र अन्यपर्यायौ नाम सर्वशब्दवत् नेम इति शब्दः अस्ति अर्ध इति नेम शब्दस्य अर्थः नेम इति शब्दस्य अर्ध इति अर्थः एवं नेमः नेमः नेमौ नेमे नेम सम सम सर्वपर्यायः तुल्यपर्यायस्तु न इदानीं समशब्दस्य अर्थद्वयमस्ति सर्व सम सर्व इति अर्थः समशब्दस्य तुल्य इति अस्ति यथासङ्ख्यमनुदेशसमानाम् इत्यत्र तुल्य इति अस्ति समानामिति तत्रैव आगतं तुल्यशब्दस्य समानसंज्ञा नास्ति तुल्यार्थ समशब्दस्य तुल्यार्थसमशब्दस्य सर्वनामसंज्ञा नास्ति यथासङ्ख्यमनुदेशसमानामिति पाणिनेः एव प्रयोगः समः सर्वपर्यायः यद्यपि सर्वपर्याय यदा सर्वपर्यायः अस्ति तदा एव सर्वनामसंज्ञा तदा समः समौ समे इति भवति इदानीं सीमा इति अस्ति सीमा इत्यपि सर्वशब्दस्य पर्यायः एवं तदनन्तरं गणसूत्राणि सन्ति पूर्वापर अवरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् गणसूत्राणि सन्ति सिमशब्दस्य अर्थः सर्वपर्यायः सिमशब्दस्यापि आल् सर्व इत्येव अर्थः इदानीं पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायामिति गणसूत्रम् अस्ति गणसूत्रं कुत्र अस्ति सर्वादिगणे पठितः गणसूत्रमस्ति सर्वादिगणे पठितः समज्ञातिधनाख्यायामित्यपि पठितः अन्तरं बहिर्योगोपसव्यानयोः इत्यपि पठितः अत्र सर्वनामशब्दाः सन्ति तत्तु अग्रे अपि पाणिनिसूत्रेणापि उच्यते तत् किमर्थमिति अग्रे पश्यामः त्यदादि तदनन्तरं त्यद् तद् यद् एतद् इति त्यदादि द्वादशशब्दाः सन्ति एक इति शब्दः अदन्तः अस्ति अस्य अर्थः सङ्ख्याभिन्न यदि सङ्ख्याशब्दः एकशब्दः अस्ति चेत् नित्यम् एकवचनान्तः एकः एक एकम् इति भवति तत्तु वयं जानीमः यदि सङ्ख्याभिन्नार्थशब्दः अस्ति चेत् तदा एव तस्य सर्वनामसंज्ञा सङ्ख्याभिन्नार्थशब्दः अन्य प्रधान प्रथम केवल साधारण समान अल्प एते अर्थाः एकशब्दस्य भवन्ति तद् श्लोकम् अपि अस्ति अग्रे अपि वक्ष्यामि अहं तर्हि एकशब्दस्य सङ्ख्याभिन्नार्थः अपि अस्ति इदानीम् एकं सुभाषितं विद्यते तस्य पाठभेदः अस्ति अतः तत् उदाहरणरूपेण वक्तुं शक्यते वा तत्र नीतिशतके प्रायः नीतिशतके वा वैराग्यशतके वा अस्ति एके सत्पुरुषाः परार्थगतकाः स्वार्थान् परित्यज्य ये सामान्यास्तु परार्थमुद्यमकृताः स्वार्थाविरोधेन ये तेनीमानुषराक्षसाः परहितं स्वार्थाय मुघ्नन्ति ये तु घ्नन्ति निरर्थकं परहितं ते केन जानीमहे इति सुभाषितमस्ति अत्र पाठभेदः अस्ति प्रथम सुभाषितस्य आरम्भः एते सत्पुरुषाः इति एकः पाठः ये के सत्पुरुषाः इति एकः पाठः ये के सत्पुरुषाः इति पाठः यदि स्वीक्रियते इन् सम् आफ् दि मेनुस्क्रिप्ट्स् आफ् नीतिशतकः ये के सत्पुरुषाः इति उक्तम् तत्र एके सत्पुरुषाः इत्यत्र एकः एकौ एके इति सर्वनामशब्दत्वेन स्वीकृतः एकशब्दः तस्य अर्थः विरलाः इति परात् स्वार्थान् परित्यज्य परार्थघटकाः सत्पुरुषाः एके एके इत्युक्ते विरलाः न्यूनाः अल्पाः अल्पसङ्ख्याकाः इति अर्थः एके इत्युक्ते अल्पसङ्ख्याकाः न तु एकसङ्ख्या तत्र उदाहरणम् एके इति उदाहरणं नीतिशतके अस्ति एवम् एकशब्दः अन्य प्रधान प्रथम केवल साधारण समान अल्प एतेषु अर्थेषु समभवन्ति तदा सर्वनामसंज्ञा भवति तदा एकः एकौ एके इति रूपं भवति। इदानीं तु अस्माभिः सर्व सर्वाधिगणे पठितानां शब्दानां एकवारं ज्ञानं प्राप्तम्। इदानीं पूर्वपरावर दक्षिणोत्तरापराधराणि तत्र पूर्वादि नव समज्ञाति धनाख्यायाम् एतेषां सर्वेषाम् अग्रे सूत्रं पाणिनिसूत्रमपि आगच्छति, तत् तत्र पश्यामः तेषामर्थं रूपं प्रक्रिया सर्वं तत्र पश्यामः। इदानीम् अत्र पर्यन्तं सन्देहाः सन्ति वा, किमपि प्रश्नः अस्ति वा? शारदा भगिनी किमपि प्रश्नः अस्ति वा? अग्रे गच्छामः वा? अस्तु, हा पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् इति सूत्रं विद्यते, पाणिनिसूत्रमेतत्, न तु गणसूत्रम्। इदानीम् अत्र पदत्रयं विद्यते, पूर्वपर अवरदक्षिण उत्तरापर अधराणि व्यवस्थायाम् असंज्ञायाम् इति पदत्रयं, प्रथमाध्यायस्य प्रथमपादे एव एतत् सूत्रं विद्यते। विभाषागति इति इत्यस्मात् विभाषागति इति अनुवर्तते। अत्र सूत्रार्थः एवं गम्यते, एतेषाम् इत्युक्ते एतेषां नाम, एतेषां नाम पूर्वपर अवर दक्षिण उत्तर अपर अधर एतेषां सप्तानां व्यवस्थायाम् असंज्ञायां सर्वनामसंज्ञा भवति। सर्वनामसंज्ञा गणसूत्रात् या प्राप्ता सा जसि वा स्यात्। इदानीं प्रश्नः एवं कर्तव्यं, गणसूत्रे अपि एतदेव सूत्रम् अस्ति, पुनः अत्र एतस्यैव सूत्रस्य किमर्थम् आवृत्तिः इति प्रश्नः, प्रथमप्रश्नः। तदा उच्यते पाणिनिना किमर्थं पृथक् सूत्रं कृतम् इत्युक्ते, यद्यपि गणसूत्रे अस्ति तथापि अत्र कृतं सूत्रं कृतम् केवलं किमर्थं, विभाषा जसि इति अनुवृत्ति अनुवृत्त्यर्थं, जसि सु औ जस् इति जस् प्रत्ययः यत्र यदा भवति तदा विकल्पेन सर्वनामसंज्ञा। इदानीं गणसूत्रेण किं प्राप्तं, पूर्व पूर्वपर अवर दक्षिण उत्तर अपर अधर एतेषां सर्वेषां सर्वनामसंज्ञा प्राप्ता। सर्वनामसंज्ञा सर्वनामसंज्ञा प्राप्तिः नाम किं भवति, सर्वनामसंज्ञानिमित्तकार्याणि भवन्ति। सर्वनामसंज्ञानिमित्तकार्याणि कानि इत्युक्ते, तत्र जशस्वि सर्वनाम्नस्मै, न्यसिन्योः स्मास्मिनौ, आमि सर्वनाम्नस्कुत्, एते एव सर्वनामकार्याणि। इदानीं यदि अत्र पृथक् सूत्रं पाणिनिना न क्रियते स्म तर्हि विभाषा जसि इति अनुवृत्तिः अत्र न स्यात्। यदि विभाषा जसि इति अनुवृत्तिः न स्यात् तर्हि किं स्यात्, सर्वत्र सर्वनामसंज्ञा कार्याणि भवति, जसि अपि सर्वः सर्वौ सर्वे, पूर्वः पूर्वौ पूर्वे इत्येव भवति स्म। अस्माकं रूपं तत्र किम् इष्टम् इत्युक्ते विकल्परूपम् इष्टं, पूर्वे अपि रूपम् आवश्यकं, पूर्वाः इत्यपि रूपम् आवश्यकम्, एवमेव पर पर इत्यस्यापि परे पराः, अवरे अवराः, दक्षिणे दक्षिणाः, उत्तरे उत्तराः, अपर अपरे अपराः, अधरे अधराः इति विकल्परूपाणि अस्माभिः इष्टम्। अतः पाणिनिना पृथक् सूत्रं कृतम्। अत एव अस्य सूत्रस्य अर्थः एतेषाम् एतेषां नाम एतेषां सप्तशब्दानां व्यवस्थायां, व्यवस्था नाम किम् इति अग्रे पश्यामः, व्यवस्थायाम् అసన్యాయం సన్యాన భవేత్ వ్యవస్థా భవేత్, వ్యవస్థా భవేత్ సన్యాన భవేత్. వ్యవస్థా నామ కా ఇది వయం అగ్రే పశ్యామః. వ్యవస్థాయాం యదా వ్యవస్థా భవతి సన్యాన భవతి తదా సర్వనామ సన్యా గణసూత్రాత్ యా ప్రాప్తా సర్వత్ర యా ప్రాప్తా, సర్వత్ర ఇత్యుక్తే పంచసు స్థలేషు సర్వత్ర యా ప్రాప్తా సా జతి ఏవ వికల్ప్యతే. జతి వా స్యాత్, జతి నామ జత్ ప్రత్యయస్య స్థానే సో జస్, జసి వికల్ప్యతే. ఏవం అస్మాభిః జసి రూపద్వయం ప్రాప్యతే. ఇదానీం అగ్రే గచ్చామః. వ్యవస్థా నామ కిం? స్వాభిధేయాపేక్షావధి నియమో వ్యవస్థా ఇతి స్వయం మూలకారః స్వయమేవ వదతి. స్వాభిధేయాపేక్షావధి నియమో వ్యవస్థా తత్ర కిం ఇతి పశ్యామః. ఏకనిమిషం. ఇదానీం గణసూత్రే యజ్జతి పాఠితః ఏతేషాం సప్తశబ్దానాం జతి వికల్పార్థం క్షమ్యతాం. వ్యవస్థా నామ కిం ఇత్యుక్తే స్వస్య అభిధేయేన అపేక్షస్య అవధేహే నియమః. ఉదాహరణం పశ్యామః, తదనంతరం తస్య స్వాభిధేయ ఇత్యాది వాక్యం ప్రతి ఆగచ్చామః. ఇదానీం కాశీ పూర్వ ఇది ఉదాహరణం అస్తి. కాశీ పూర్వ ఇది యదా వాక్యముచ్యతే తదా అస్మాభిః కుతః పూర్వ ఇది ప్రశ్న జటిది ఆకాంక్ష ఉత్పన్నా భవతి. తదా అస్మాభిః ఉచ్యతే ప్రయాగాత్ కాశీ ప్రయాగాత్ పూర్వ ఇది అస్మాభిః ఉచ్యతే. ఇదానీం పూర్వశబ్దస్య అత్ర పూర్వదిశస్థిత కాశీదేశ ఇత్యర్థః. ఏవం అత్ర వ్యవస్థా అస్తి. వ్యవస్థా నామ స్వస్య అభిధేయేన అపేక్షస్య అవధేహే నియమః. దిస్ కెన్ బి ఈజిలీ ఎక్స్ప్లెయిన్డ్ ఇన్ ఇంగ్లీష్. వ్యవస్థ ఈజ్ అ రిలేటివ్ పొజిషన్, రిలేటివిటీ. సంథింగ్ ఇస్ సెట్ టు బి ఈస్ట్. సి ఈస్ట్ ఇది ఉచ్యతే, నార్త్ ఇది ఉచ్యతే, సౌత్ ఇది ఉచ్యతే, వెస్ట్ ఇది ఉచ్యతే, పూర్వపర పశ్చిమ ఇది ఉచ్యతే. కస్మాత్ ఇత్యుక్తే సుమేరు పర్వత అస్తి మధ్యే, భారతస్య మధ్యే సుమేరు పర్వత తత్ర అస్తి. సుమేరు పర్వతస్య ఉత్తరే అస్తి చేత్ ఉత్తరం, దక్షిణే అస్తి చేత్ దేర్ ఇస్ ఎ రెఫరెన్స్ పాయింట్ ఫర్ ద అర్త్ ఈక్వేటర్ మే బి ఎ రెఫరెన్స్ పాయింట్ ఫర్ ఇండియా. సుమేరు పర్వత ఇస్ ఎ రెఫరెన్స్ పాయింట్. ఏవం కాశీ పూర్వ ఇది ఉచ్యతే చేత్ పూర్వ ఇత్యుక్తే కుతః పూర్వ ప్రయాగాత్ పూర్వ. అత్ర కాశీ అత్ర తత్ర పూర్వ శబ్ద పూర్వాదిశస్థిత కాశీ దేశవాసి అత్ర అస్తి. పూర్వే రావణాదయ ఆసన్, పూర్వే రావణాదయ ఆసన్, పూర్వే నామ కేభ్య పూర్వే ఇది వయం ప్రశ్నం పృచ్చామశ్చేత్ కంసాదిభ్య పూర్వే రావణాదయ ఆసన్. కాలవాచి పూర్వస్యాం దిశి రవిః ఉదేతి ఇది ప్రశ్న ఇది అస్తి. ఉదాహరణమస్తి పూర్వస్యాం నామ తత్తు ప్రసిద్ధ ఉదాహరణం. పూర్వస్యాం నామ కస్మాత్ సుమేరు పర్వతాత్ పూర్వస్యాం దిశి ఇతి ఇతి అస్మాభిః. ఏవం ఏతాదృశ స్వస్య అభిధేయేన 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 నామ వాచ్యేన అపేక్షస్య అపేక్ష్యస్య నామ అపేక్ష్యమానస్య అవధేహ నియమః లిమిట్స్ రిలేటివ్ పొజిషన్ దిస్ పర్టిక్యులర్ థింగ్ ఇస్ కాల్డ్ వ్యవస్థ. ఎత్ర వ్యవస్థ భవేత్ పూర్వ పరావర దక్షిణోత్తరాపరాధరాణి ఇత్యత్ర సర్వత్ర వ్యవస్థ భవేత్. వ్యవస్థ భవేత్ అసన్యాయం భవేత్ తదా ఏవ సర్వనామ సంజ్ఞా భవతి. ఇదానీం దక్షిణాః ఘాతకాః కుశలాః ఇత్యర్థః. దక్షిణాః ఘాతకాః ఇది అపరం ఉదాహరణం. వ్యవస్థాయాం కిం వ్యవస్థ కిమర్థం భవేత్ ఇత్యుక్తే ఎత్ర ఎత్ర వ్యవస్థ తత్ర తత్ర సర్వనామసంజ్ఞా. ఎత్ర వ్యవస్థ నాస్తి తత్ర సర్వనామసంజ్ఞా నాస్తి. దక్షిణాః ఘాతకాః నామ ఘాతకాః నామ కుశలాః ఇత్యర్థః. కుశలాః ఘాతకాః తత్ర అత్ర దక్షిణాః కుశలాః ఇత్యర్థః. దక్షిణ శబ్దస్య చతురః కుశలః ఇత్యర్థః. అత్ర అవధి నియమః నాస్తి, అత్ర ఆకాంక్ష నాస్తి. కస్మాత్ కుశలాః ఇత్యాది సర్వం నాస్తి. अतः आकांक्षा नास्ति, व्यवस्था नास्ति, अतः समनाम संज्ञा नास्ति, तर्हि दक्षिणाः घातकाः इत्येव भवति, दक्षिणे इति न भवति। एवम् उत्तरशब्दस्यापि असंज्ञायां किम् उत्तराः कुरवः, अत्र व्यवस्था अस्ति, उत्तराः नाम सुमेरुपर्वतस्य उत्तरप्रदेशः इति। कुरवः इति उक्तत्वात् उत्तरशब्दस्य उत्तराः कुरवः इत्युक्ते कुरुदेशस्य संज्ञा एव उत्तराः, तत्र प्राचीनव्यवस्था एवमस्ति, उत्तराः नाम कुरवः, कुरुदेशस्य जनाः इति उत्तराः इति स्वीक्रियन्ते। अत्र संज्ञा अस्ति, व्यवस्था अस्ति, परन्तु संज्ञा अस्ति, अतः असंज्ञायाम् इति उक्तत्वात् अस्मिन् सूत्रे अत्र सवनामसंज्ञा न भवति। एवं पुनः पश्यामः, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम्। इदानीं सूत्रे समासः अस्ति, कथम् अस्ति, किम् अस्ति, पूर्वञ्च परञ्च अपरञ्च दक्षिणञ्च उत्तरञ्च अपरञ्च अधरञ्च, पूर्वपरावरदक्षिणोत्तरापराधराणि इतरेतरद्वन्द्वसमासः किमर्थम् अत्र शब्दस्वरूपम् इति अध्याह्रियते, विशेषम् अध्याह्रियते, एवं भवति असंज्ञायां न संज्ञायाम् असंज्ञायां संज्ञाभिन्नव्यवस्थार्थे भवति। व्यवस्था नाम का? स्वाभिधेयापेक्षावधिनियमो व्यवस्था इति मूलकारः वदति। सो स्वाभिधेय, स्वाभिधेय सेल्फ् रेफरेन्स् ऐ जस्ट् टेल् इण्डिविजुवल् वर्ड्, स्वाभिधेय सेल्फ् रेफरेन्स्, अभिधेय मीन्स् ऐडेण्टिफिकेशन् आफ् सेल्फ्, अपेक्षावधिनियम बै वित् रेफरेन्स् टु ए रिलेटिव् पोजिशन्, with reference to a reference, frame of reference, avadhiniyama is a frame of reference. Tatra physics madhye, physics mathematics madhye frame of reference iti bhavati. Yadi kopi physics adhyayanam kritavan, frame of reference iti bhavati. Frame of reference nama ekam moolabhuta asti. Astuttarasyam visidevatatma हिमालयो नाम नगादिराजः पूर्वापरौ तोयन्तीव गात्य चितः पृथिव्या इव मानदण्डः, मानदण्डः फ्रेम् आफ् रेफरेन्स् नाम मानदण्डः, मानं कुत्र अस्मात् प्रदेशात् मानं कर्तव्यं, मेजरिङ्ग् फ्रेम् आफ् रेफरेन्स्, अवधिनियमः फ्रेम् आफ् रेफरेन्स्, स्व अभिधेयापेक्षावधिनियमो व्यवस्था, यदि एतादृश अस्ति चेत् व्यवस्था इति उच्यते। इदानीं दक्षिणाः घातकाः यत् यत् व्यवस्था भवेत् संज्ञा न भवेत्, तदा एव सर्वनामसंज्ञा भवति एतेषां सप्तशब्दानाम्। उदाहरणं तु काशीपूर्वा पूर्वे रावणादयः, पूर्वस्यां दिशि रविः उदेति इत्यादयः, व्यवस्था अस्ति संज्ञा नास्ति, अतः अत्र सर्वनामसंज्ञा प्राप्ता। गणसूत्रे पाठितः पुनः अत्र पाठस्तु जसि विकल्पार्थम्। दक्षि व्यवस्थायां किम् इति जलकृत्यं यदि क्रियते चेत् दक्षिणाः घातकाः इति उच्यते, दक्षिणाः नाम कुशलाः इत्यर्थः, कुशलाः घातकाः। एवं अत्र व्यवस्था नास्ति, असंज्ञायां किं व्यवस्था अस्ति संज्ञापि अस्ति चेत् तदापि तथापि न भवति, यथा उत्तराः कुरवः, उत्तराः इत्युक्ते कुरु इति उत्तरशब्दस्य अर्थः, यद्यपि उत्तरशब्दस्य दिग्वाचि अर्थः सुमेरुपर्वतात् दिग्वाचि अर्थः अस्ति, तथापि कुरु इति अर्थः अपि स्वीक्रियते। अतः संज्ञापि अस्ति, व्यवस्थापि अस्ति, संज्ञापि अस्ति, अतः सर्वनामसंज्ञा न भवति, उत्तराः इत्येव भवति, उत्तरे इति न भवति। इदानीं एतत् सूत्रेण अस्माकं पूर्वे दशि किं भवति, पूर्वे पूर्वाः, परे पराः, अपरे अवराः, दक्षिणे दक्षिणाः, उत्तरे उत्तराः, अपरे अपराः, अदरे अदराः इति रूपाणि भवन्ति। एतावत् पर्यन्तम् अवगतं वा सर्वैः? अग्रिमसूत्रं स्वमज्ञातिधनाख्यायाम्। स्वमज्ञातिधनाख्याम् एतदपि सुलभमस्ति। स्वम् अज्ञातिधनाख्यायाम्, स्व इति शब्दः अस्ति, तस्य चत्वारः अर्थाः समभवन्ति। आत्मा, आत्मीय, ज्ञाति, धन इति स्वशब्दस्य अर्थः। अत्र उच्यते स्वमज्ञातिधनाख्यायाम्। अज्ञातिधनाख्यायां ज्ञातिधनवाची स्वशब्दः न तु सर्वसंज्ञा सर्वनामसंज्ञां प्राप्नोति। आत्मा, आत्मीय इति अर्थः यदा भवति तदा एव सर्वनामसंज्ञा, स एव सूत्रस्य अर्थः। इदानीम् अग्रे पठामः ज्ञातिधना धन अन्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा जति वा स्यात्। अत्र अत्रापि एवमेव अस्ति, गणसूत्रे पाठितः सर्वनाम गणे पाठितः, तथापि अत्र किमर्थं पुनः पाठितः पाणिनिना सूत्ररूपेण इत्युक्ते जति विकल्पार्थम्। एवं स्वे स्वाहा आत्मीयाः आत्मनः इति रूपद्वयं भवति। सारि, आत्मीयाः आत्मनः इति अर्थः अस्ति, ज्ञातिजनवासिनस्तु स्वाः ज्ञातयः। ज्ञाति नाम बन्धुः, धन भवन्तः जानन्ति धन अर्थम्। एवम् आत्मा आत्मीय अर्थे भवति चेत् स्वे स्वाहा इति भवति, ज्ञातिधन अर्थे स्वशब्दः अस्ति चेत् स्वाहा इत्येव रामशब्दवत् रूपं भवति। अन्तरं बहिर्योगोपसंज्ञानयोः, अन्तरं बहिर्योगोपसंज्ञानयोः अत्र पदद्वयमस्ति, अन्तरं बहिर्योग उपसंज्ञानयोः। इदानीं बहिः नाम अनावृतप्रदेशः, बहिर्योग अनावृतप्रदेशः, तेन सम्बन्धः। बहिः विद्यमानात् इत्युक्ते उपसंज्ञानं नाम परिधानं नाम वस्त्रेण आच्छादनम्, अन्तरीयं वस्त्रम्, एवम् आच्छादनम्। एवं बाह्ये परिधानीये च अर्थे, बाह्ये नाम बाह्यार्थे, परिधानीये च अर्थे अन्तरशब्दः अस्ति। अन्तरशब्दस्य गणसूत्रे सर्वनामसंज्ञा नित्यं प्राप्ता, जसि विकल्प्यते। इदानीम् अन्तरं बहिर्योगोपसंज्ञानयोः इति सूत्रेण जसि विकल्प्यते, तेन अन्तरे अन्तराः इति रूपः। अन्तरे अन्तराः गृहाः इत्युक्ते बाह्याः इत्यर्थः, बाह्याः गृहाः, बाह्याः गृहाः। इदानीं तत्र चाण्डालाः आसन्, पूर्वं चाण्डालाः आसन्, तेषां गृहाणि नगरस्य बहिप्रदेशे आसन्, तदा एषः प्रयोगः। अन्तराः गृहाः इत्युक्ते तत्र बाह्याः चाण्डालानां गृहाः इति वक्तुं शक्यते। तत्र मनुस्मृतौ दशमाध्याये अन्तराः गृहाः इति प्रयोगः अस्ति, मनुस्मृतौ अस्ति, मनुस्मृतौ तत्र दशमाध्यायस्तु तत्र चातुर्वर्ण्यव्यवस्था इत्यादि विषये अस्ति। तत्र चाण्डालानां गृहाः नगरस्य बाह्यप्रदेशे अस्ति इति अहं सम्यक् न स्मरामि, परन्तु मनुस्मृतौ अस्ति इति जानामि, दृष्ट्वा पुनः वदामि। अन्तरे अन्तराः गृहाः, एवम् अन्तरशब्दः बाह्यार्थे अस्ति अत्र। ఇదాని అంతరాహ శాతకాహ అంతరాహ శాతకాహ అంతరాహ నామ అంతరాహ శాతక పరిధాన్యా వస్త్ర పరిధాన్యా అంతరాహ శాతక నామ అధోభాగే శరీరస్య అధోభాగే శాతక శాతక నామ వేష్టి ఇత్యపి వస్తుం శక్యతే తత్ర వేష్టి ఇత్యాది పురుషాణం కృతే వేష్టి ఇత్యాది శాతికాపి భవతి అంతరాహ శాతకాహ ఏవం అంతరశబ్దః అత్ర పరిధానీయే పరిధీయతే ఉపసంధీయతే ఇతి ఉపసంయానం ఇత్యాది అర్థే అస్తి అతః వికల్పేన జపి సర్వనామసంజ్ఞా కిం భవతి అంతరే అంతరాహ భవతి ఇదానీ బహిర్యోగోపసంజ్ఞానయోః ఇతి యది నౌచ్యతే అనయోః గ్రామయోః అంతరే తాపసః ప్రవిశతి అనయోః గ్రామయోః అంతరే తాపసః ప్రవిశతి అంతరశబ్దః అత్ర మధ్యదేశః ఇతి అర్థే అస్తి అత్ర అంతరశబ్దః నతు సర్వనామ శబ్దః యతః అంతరశబ్దః బహిర్యోగోపసంజ్ఞానయోః బాహ్యార్థే నాస్తి ఉపసంజ్ఞానార్థే నాస్తి మధ్యదేశః ఇతి అర్థే అస్తి అతః అత్ర న సర్వనామసంజ్ఞా ఆవయోః అంతరే జాతాః పర్వతాః సరితో ధుమాః ఇతి అపి ఏకం ఉదాహరణమస్తి ఆవయోః అంతరే జాతాః పర్వతాః సరితో ధుమాః ఏకత్ ఉదాహరణం సమీచీనమస్తి అనయోః గ్రామయోః అంతరే తాపసః ప్రతివసతి ఇత్యాది అత్ర బాహ్యార్థే నాస్తి బహిర్యోగో బాహ్యార్థే నాస్తి ఉపసంజ్ఞానార్థే నాస్తి అంతరశబ్దః అతః తస్య సర్వనామసంజ్ఞా నాస్తి పూర్వాదిభ్యో నవో వా ఇది అగ్రిమసూత్రం అత్ర పూర్వాదిభ్యో నవో వా ఇత్యుక్తే అస్మాభిః నవ ఇత్యుక్తే నవ సంఖ్యాకాః పూర్వ కుత్ర అస్తి పూర్వ నవశబ్దాః కే పూర్వ పర అవర దక్షిణ అపరాదర సప్తశబ్దాః అనంతరం నవ అస్తి నవ ఇత్యుక్తే అగ్రిమతో పూర్వ పరావరద స్వమ స్వ అంతర స్వ స్వం అంతర స్వమజ్ఞాతి ధనాఖ్యాయం స్వ స్వం అంతరం తర్హి నవశబ్దాః అభవన్ ఏభ్యః నవభ్యః శబ్దేభ్యః న్యసిజ్ఞోః స్మాస్మినో వాప్తః ఇతి పూర్వాదిభ్యః నవభ్యః న్యసిజ్ఞోః స్మాస్మినో ఇతి అనువృత్తిః అస్తి సప్తమాధ్యాయస్య సూత్రమేతత్ సప్తమాధ్యాయస్య సూత్రమేతత్ పూర్వాదిభ్యో నవభ్యో వా ఇతి సప్తమాధ్యాయస్య సూత్రం అంగాధికారే అస్తి ఏభ్యః నవభ్యః న్యసిజ్ఞోః స్మాస్మినో వా స్తః ఏవం పూర్వస్మాత్ పూర్వాత్ పూర్వస్మిన్ పూర్వే ఇతి స్మాస్మిన్ యత్ర భవతి తత్ర వికల్ప రూపం భవతి ఏవం పూర్వశబ్దస్య పూర్వే పూర్వాః ఇతి జసి వికల్పః నసి వికల్పః పూర్వస్మాత్ పూర్వాత్ ఇతి నసి వికల్పః స్మిన్ సప్తమీ విభక్తౌ पूर्वस्मिन् पूर्वे इति सप्तमी सप्तमी विभक्तौ अपि विकल्पः. अवगतं? पूर्वादि नवशब्दानामपि एवमेव. परशब्दस्यापि परस्मात् परात् परस्मिन् परे अवरस्मात् अवरात् अवरस्मिन् अवरे दक्षिणस्मात् दक्षिणात् दक्षिणस्मिन् दक्षिणे उत्तरास्ति किल उत्तरस्मात् उत्तरात् उत्तरस्मिन् उत्तरे अपरस्मात् अपरात् अपरस्मिन् अपरे अधरस्मात् अधरात् अधरस्मिन् अधरे स्वस्मात् स्वात् स्वस्मिन् स्वे अन्तरस्मात् अन्तरात् अन्तरस्मिन् अन्तरे एवं भवति. षष्ठी बहुवचने अवरेषां पूर्वेषाम् इत्येव भवति. पूर्वेषाम् अत्र नसिंहज्ञोः एव अस्ति किल अस्माकिनौ सूत्रं षष्टिबहुवचने किम् अस्ति आमिसवनाम्नः यदि सर्वनामः न स्यात् यदि सर्वनामशब्दः न स्यात् यदि सर्वनामः न स्यात् तदा पूर्वाणाम् इति भवति. तदा पूर्वादिभ्यो नवभ्यो वा इति पूर्वादि गणसूत्रमस्ति. गणसूत्रे किं कृतम्? गणसूत्रे किं कृतं? सर्वादिगणे पठितत्वात् सर्वशब्दवत् जषस्ति सर्वं भवति. इदानीं जतिविकल्पः इति जतिविकल्पः कृतः पूर्वापर इदानीम् आगतं किल सूत्रम् पूर्वपरावरदक्षिणोत्तरापराधानव्यवस्थायामसंज्ञायाम् इति सूत्रेण जसि विकल्पः कृतः. इदानीम् एतत् सूत्रं न स्यात् तर्हि किं स्यात्? जसिविकल्पः केवलं सर्वनामसंज्ञा एव स्यात्. अतः अस्माभिः पूर्वादिति रूपसिद्ध्यर्थं पुनः एतत् सूत्रस्य आवश्यकता अस्ति. अस्ति वा नास्ति वा? अस्ति. अतः षष्टिबहुवचने षष्टिबहुवचने किम् अस्ति? सर्वशब्दवत् अस्ति. विकल्पः नास्ति. पूर्वशब्दस्य सर्वनाम पूर्वशब्दस्य पुनः उच्यताम् इदानीं इदानीं सिचुएशन् द्वयमस्ति भगिनि. अत्र पूर्वशब्दः यदि सर्वनामशब्दः अस्ति वा नास्ति वा, इदानीं सर्वनामशब्दशब्दानां विषये एव चर्चा. सर्वादिगणे प्रविष्टाः वयं, सर्वनामशब्दानां विषये एव चर्चा. पूर्वशब्दः यदि सर्वनामः नास्ति, अत्र चर्चा एव नास्ति तस्य. Now what we are seeing, suppose there is a person called Sarva. Sarvo nama kashchit. His name, tasya nama Sarva iti asti. Tasya kim rupam bhavati? Rama shabdavat bhavati. Purva, there is a Sarvo na, Purva nama kashchit purushasya nama asti. Purva. Bhavati kila asti, Purva, Sarva, ityadi, shastam bhavanti. Tatra Purva nama kashchit. तस्य सर्वनामसंज्ञा नास्ति. अत्र किमपि कथनस्य आवश्यकता एव नास्ति. इदानीं पूर्वशब्दः सर्वनामः अस्ति. सर्वनामशब्दस्य रूपं कथं भवति? सर्वशब्दवत् भवति वा इति प्रश्नः. सर्वशब्दवत् न भवति, जतिविकल्पः अस्ति इति अपवादः प्रदर्शितः. अन्यत्र कुत्रापि अन्यत्र किमपि व्यत्यासः अस्ति वा? तदा पूर्वादिभ्यो नवभ्यो वा इति सूत्रम् उक्तम्. पूर्वादिभ्यो नवभ्यो वा इति न्यसिज्ञोः स्मात्मिनौ इति तत्र न्यस् ञो मध्ये सप्तमी पञ्चमी मध्ये विकल्पः प्रदर्शितः. षष्टिविषये किमपि न उक्तम्, किमपि न उक्तम् इति कारणतः सर्वशब्दवत् भवति, यतोहि सर्वनाम गणे पाठितः इति भवति. सम्बोधनविषये अस्ति सर्वत्र सम्बोधनमस्ति. केवलं तद् यत् इत्यादि शब्देषु तत्र त्यदादीनां विषये एव सम्बोधनम् अवरुध्यते. अत्र तु सर्वत्र सम्बोधनम् अस्त्येव, सर्वत्र अस्ति. सर्वशब्दस्य सम्बोधनमस्ति, पूर्वशब्दस्य अस्ति. हे पूर्व जति इति उक्तत्वात् तत्र भवति. हे पूर्वे हे पूर्वाः जति इति उक्तत्वात् प्रथमा सम्बोधनप्रथमा किल, अतः जति इति उक्तत्वात् तत्रापि अन्तर्भवति. एवं सर्वत्र हे अवरे हे अवराः, हे उत्तरे हे उत्तराः, हे परे हे पराः, हे दक्षिणे हे दक्षिण इति सर्वत्र भवति. पूर्वादिभ्यो नवभ्यो वा इति सूत्रं पूर्वशब्दस्य एवं पञ्चमी सप्तमी विभक्तौ विकल्पः, सर्वनामसंज्ञा विकल्पः. सर्वनामसंज्ञा विकल्पः नाम विकल्पः नाम किम्? एक प्रवृत्तिः अप्रवृत्तिः, प्रवृत्तिः अप्रवृत्तिः, प्रवृत्तिः अप्रवृत्तिः, एतदेव विकल्पः नाम. विकल्पः नाम पूर्व सर्वनामसंज्ञा प्रवृत्तिः पूर्वस्मात्, सर्वनामसंज्ञा अप्रवृत्तिः पूर्वात्, सर्व प्रवृत्तिः पूर्वस्मात्, अप्रवृत्तिः पूर्वात्, एतदेव विकल्पः इति उच्यते. अत्र पूर्वादिभ्यो नवभ्यो वा इति एकशब्दः, पूर्वादिभ्यो नवभ्यो वा एकशब्दः. एकशब्दस्य विषये अहम् उक्तवान्, सङ्ख्यायां नित्यम् एकवचनान्तः, अर्थान्तरे तु द्विवचनबहुवचने स्तः. तत्र एको अन्यार्थे प्रदाने च प्रथमे केवले तथा साधारणे समाने अल्पे सङ्ख्यायाञ्च प्रयुज्यते इति एकशब्दस्य अर्थविषये एकश्लोकः अस्ति. सङ्ख्यायां यदि भवति चेत् नित्यम् एकवचनान्तः, अन्येषु अर्थेषु द्विवचनबहुवचनमपि अस्ति. एषः श्लोकः सम्यगस्ति, अत एव मया कुत्रचित् स्वीकृतं. तदस्ति एकशब्दस्य अर्थविषये एवमस्ति. एतद् अग्रिमकक्षायां कुर्मः. अग्रिमकक्षायां किम् अस्ति? प्रथमचर्मः, प्रथमचर्मतया. एतावत्पर्यन्तं संशयः अस्ति वा? सर्वनामविषये अस्माभिः केवलं कुत्र केषु शब्देषु कुत्र विकल्पः किम् उच्यते सूत्रेण इत्येव ज्ञातव्यम्. अनन्तरं पञ्चत्रिंशत् सर्वनामशब्दाः सन्ति, तेषां विषये एव ज्ञानम्. गणे पठितशब्दाः एते एव. अस्तु, अद्य केचन जनाः नूतनतया प्रविष्टाः, तेषाम् अवगमनं कथम् अभवत् इति अहं न ज्ञातवान्. अमृतवल्ली भगिनी, डिड् यू अण्डर्स्टाण्ड्? अस्तु, अस्तु. अस्तु शुभरात्रि येनाक्षर समाम्नायम अधिगम्य महेश्वरा कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौताग्रः पुंसां पिबन्